इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्याम् एकस्मिन् विशिष्ट कृषि कार्यक्रमे प्रायः 42,000 करोड़ रूप्यकाणां कृषि सम्बद्ध क्षेत्राणां बहुविध विकास परियोजनानां उद्घाटनं शिलान्यासञ्च करिष्यति। श्रीमोदी पीएम धनधान्य योजना अपि च द्विदल धान्य मिशन इत्यस्मिन् स्वावलम्बनम् इति द्वयोः प्रमुखयोः उपक्रमयोः आरम्भं करिष्यति। कार्यक्रमावधौ प्रधानमन्त्री कृषकैः सह संवादम् अपि करिष्यति। अत्रावसरे प्रधानमन्त्री कृषिक्षेत्रे पशुपालनक्षेत्रे मत्स्यपालनक्षेत्रे खाद्यसंस्करणक्षेत्रे च ₹4,500,000 करोड़ परियोजनानाम् उद्घाटनं करिष्यति तथा च प्रायः 15,800 करोड़ अतिरिक्त परियोजनानां शिलान्यासम् अपि करिष्यति। बिहार राज्ये विधानसभा निर्वाचनस्य कृते एनडीए इति राष्ट्रिय जनतांत्रिक गठबंधनस्य पक्षे आसन विभाजन विषयः अनेक वार्तालापानां अनुनयस्य च अनन्तरं समाप्तः अभवत्। एनडीए पक्षस्य प्रमुखाः नेतारः शीघ्रमेव आसन विभाजन व्यवस्थां घोषयेयुः इति अपेक्षते। दलस्य राष्ट्रिय अध्यक्षः जेपी नड्डा अद्य नवदिल्ल्यां मुख्य समिति सभायाः अध्यक्षता करिष्यति। अवधेयं यत् राज्ये विधानसभा निर्वाचनं द्वयोः चरणयोः भविष्यति। प्रथमस्य चरणस्य मतदानं नवम्बर मासस्य 6 दिनांके भविष्यति। 2020 नोबल शान्ति पुरस्कारः मारिया कोरिना मचाडो इत्यस्मै प्रदत्तः। वेनेजुएला देशस्य जनानां कृते लोकतांत्रिक अधिकाराणां प्रचारार्थम् अतिशय कार्यस्य कृते पुरस्कारोऽयं प्रदत्तः। वेनेजुएला देशे लौह महिला इति नाम्ना अपि प्रसिद्धा मचाडो इत्येषा 2020 टैम् पत्रिकायाः 100 प्रभावशालिनां जनानां सूच्यां सूचीबद्धा आसीत्। विदेशमन्त्रिणा डॉ एस जयशंकरेण 22 अप्रैल पहलगाम आतंक्याक्रमणस्य निन्दायै अफगानिस्तानाय कार्तज्ञं प्रकटितम्। नवदिल्ल्यां डॉ एस जयशंकरस्य तथैव अफगानिस्तानस्य विदेशमन्त्रिणः मौलवी अमीर खान मुत्ताकी इत्यनयोः मध्ये सम्पन्नवार्तायाः अनन्तरम् एकस्मिन् संयुक्त वक्तव्ये उभौ पक्षौ क्षेत्रीय देशेभ्यः उत्पद्यमानानां सर्वविध आतंकवादी कृत्यानां स्पष्टरूपेण निन्दाम् अकुरुताम्। तौ क्षेत्रे शान्तिं स्थिरतां तथा पारस्परिक विश्वासं संवर्धयितुं महत्वं प्रत्यपादयताम्। अफगान विदेशमन्त्रिणा पुनरुक्तं यत् अफगान सर्वकारः कस्मैश्चिदपि समूहाय वक्तव्ये वा भारतस्य विरुद्धं अफगानिस्तानस्य क्षेत्रस्य उपयोगं कर्तुम् अनुमतिं नैव दास्यतीति। रक्षामन्त्री राजनाथ सिंह ऑस्ट्रेलिया देशस्य सहायक रक्षामन्त्रिणा पीटर खलील इत्यनेन सह सिडनी देशे प्रथम भारत ऑस्ट्रेलिया रक्षा उद्योग व्यापार गोलमेज सम्मेलनस्य सह अध्यक्षतां कृतवान्, येन द्वयोः राष्ट्रयोः मध्ये औद्योगिक सहभागित्वं क्षमता विकासः च भवेत्। रक्षामन्त्रिणा राजनाथ सिंहेन प्रोक्तं यत् देशः संरचनात्मक परिष्कारेषु विशेषतः विनिर्माण क्षेत्रे परिवर्तनशील यात्रायामस्ति। तेनोदीरितं यत् भारतम् अधुना विश्वस्य 4th बृहत्तम अर्थव्यवस्था तथैव तीव्रतम विकासशीला अर्थव्यवस्था अस्ति। भारत ऋतुविभागेन अद्य दक्षिणान्तरिक कर्णाटकस्य तमिलनाडुराज्यस्य पुदुचेरी राज्यस्य करैकल राज्यस्य च पृथक् पृथक् स्थानेषु प्रचण्डतः अतिवृष्टेः पूर्वानुमानं प्रकटितमस्ति। विभागेन उक्तं यत् अद्य ओडिशा आन्ध्रप्रदेश केरल माहे नागालैण्ड मणिपुर मिजोरम त्रिपुरा इत्येतेषु प्रदेशेषु प्रचण्डवृष्टिः भवितुमर्हति। क्रिकेट क्रीडायां पौरस् क्रीडकः यशस्वी जयसवालः 73,100 अंकम् अवाप्य भारतस्य विजयं सुनिश्चितम् अकरोत्। इयं हि क्रीडा अरुणजेटली क्रीडाङ्गणे अभवत् इति वार्ताः।